अथ नवग्रहमन्त्राः ॐ मा सत्येन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च हिरण्ययेन सवितारथेन देवो याति भुवनानि पश्यन्नो अग्न्यं दोतं वृणीमहे होतारं विश्ववेदसौ अस्य यज्ञस्य सकृतौ कद्रुद्राय प्रचेतसे मेढुष्टमायतव्यसे ओचेमसन्तमगुं हृदे आप्यायस्वसमेतु ते विश्वतः सोमवृष्णयो भवावाजस्य सङ्गते अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषज अग्निञ्च विश्वशम्भुवमापश्च विश्वभेषजेः गौरीमिमायसलिलादितक्षत्यैकपदे विपदेशा च दुष्पदे अष्टापदे नवपदे बभुवुषे सहस्र अक्षर परमे व्योवन् अग्निर्मूर्धादिवक्ककुत्पतिपृथिव्या अयम् अपागुं रेतागुंसि जिन्वते शोना पृथिवी भवानुक्षरा निवेशिने इच्छा नः सर्म सप्रथाः क्षेत्रस्य पतिना वयगुं हितेने वजयामसे गामस्वं पोषयित्र वासनो मृडा ते दृशे उद्भुज्यस्वाग्ने प्रजागुह्येमिष्टा पूर्ते सगं त्रिधेथामयं च पुनः कृण्वग्स्त्वा पितरं विवा नमन्वातागुं से त्वयि तन्तुमेतौ इदं विष्णुर्जक्रमे त्रेथा निदते पदौ समूढमस्य पागुं सुरे सहस्रशेरुषा पुरुषः सहस्राक्षः सहस्रपात् स भौमिं विश्वतो वृत्त्वा अत्यधिष्ठद्दशाङ्गुलौ बृहस्पते अतियदर्हो अर्ह अर्जुमद्विभात् कृतमज्जनेषु यद्येद यच्छव सत्त प्रजात तदस्मासु द्रविणं देहि चित्रौ इन्द्रमरुत्वह्य पाहि सोमं यथा स्यार्याते अपि वस्तुतस्य तव प्रणीति तव सोरसर्मन्नापि वासन्ति कवयस्सु यज्ञाः ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विषेमतः सुरुचो वेन आवह स बुद्ध्रिया उपमा अस्य विष्टा सदश्च यो निमसदस्य विवः शुक्रन्ते अन्यज्जदन्ते अन्यद्विषुरूपेऽहने जौरिवासे विश्वाहि मायावसि स्वधावो भद्राते पोषन्निहरातिरस्तु इन्द्राणीमासु नारिषु सुपत्ने महमस्रवौ न ह्यस्यापरञ्जनजरसामरते पतिः इन्द्रम्बो विस्पतः स्परिहवामहे जनेभ्यः अस्माकमस्तु केवलः ॐ शमग्निरग्निभिस्करश्चन्नस्तमधुसूर्यः शम्बातो वात्परप अपस्रिधः यमाय सोमगुं सुनुत यमाय जुहुता अविः यमगुंहयज्ञो गच्छच्चज्ञदोतो अरङ्कृतः प्रजापतेन त्वदेतान्यो विश्वा जातानि परिता बभूव यत्कामास्ते जुहमस्तन्नो अस्तु वयगुस्यामपतयोरयेणाम् कया नश्चित्र आभुवतो ते सदा वृधः सका कया षष्टया वृता आयङ्गौ पुष्यरक्कमे दशनं मातरं पुनः पितरं च वयं सुवः नमो अस्तु सर्पेभ्यो ये के च पृथिवेमनो ये अन्तरिक्षे ये दिवितेभ्यः सर्पेभ्यो नमः केतुं कृण्वन्न केतवेपेशो मर्या अपेशषे शमुषद्विरदायथाः ब्रह्मा देवानां पदवी कवीनां ऋषिर्विप्राणाम् महिषो मृगाणां सेनो गृद्रा नागुस्वतिर्वना नागुस्सोम पवित्र मत्येतिरेभन्न सचित्रचित्रं चितयन्तमस्मे चित्रक्षत्रचित्रतमं वयोधां चन्द्रं रयिं पुरवीरं बृहन्तौ चन्द्रश्चन्द्राभिगृणते यवस्व आदित्याय च सोमाय मङ्गलाय बुधाय च गुरुशुक्रस्य निभ्यस्य राहवे केतवे नमः ॐ शान्तिश्चान्तिश्चान्तिः।